आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य कश्मीरे गन्दरबल जनपदे प्रतिष्ठित सोनमर्ग सुरंगः समुद्घाटितः। अनया परियोजनया क्षेत्रे पर्यटनं वर्धिष्यति। सैन्यप्रमुखेण जनरल उपेन्द्र द्विवेदिना प्रोक्तं यत् देशस्य उत्तरीय सीम्नि स्थितः संवेदनशीला स्थिरा च सैन्यबलं कस्यापि प्रतिकूलस्थित्यां सम्मुखीकर्तुं सन्नद्धा अस्ति। उत्तरप्रदेशे प्रयागराजे विश्वस्य बृहत्तमे महाकुम्भे अद्य पौषपूर्णिमायाः अवसरे सार्धैककोट्यधिक श्रद्धालवः पवित्रनदीषु स्नानं कृतवन्तः। उत्तरपश्चिमभारते शीतलहरी प्रचलति। भीषणकुज्झटिका कारणात् रेलसेवाः प्रभाविताः। अपि च खोखो विश्वचषक प्रतियोगिता अद्य सायंकाले इन्दिरागांधी इण्डोर क्रीडाङ्गणे प्रारप्स्यते। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य कश्मीरे गन्दरबल जनपदे प्रतिष्ठित सोनमर्ग सुरंगः समुद्घाटितः, राष्ट्राय च समर्पितः। प्रधानमन्त्रिणा तत्र जनसभा एका अपि सम्बोधिता।
हमारा जम्मू कश्मीर अब टनल का, ऊंचे ऊंचे पुलों का, रोपवे का हब बनता जा रहा है। दुनिया की सबसे ऊंची टनल यहां बन रही है। दुनिया के सबसे ऊंचे रेल रोड ब्रिज, केबल ब्रिज यहां बन रहे हैं।
इतः प्राक केंद्रीय यातायात राष्ट्रीय राजमार्गीय मंत्रिणा नितिन गडकरिणा च प्रोक्तं यत् पर्यटनेन साकं जम्मू कश्मीरे स्थानीय जीवन यापनम् अपि अग्रे सरिष्यति। तेन एतदपि भणितं यत् भद्रतम मार्गैः देशः सुसम्पन्नो भविष्यति। प्रधानमन्त्रिणा सुरंगस्य आभ्यन्तरे गत्वा परियोजनायाः निरीक्षणं विहितम्। सोनमर्ग सुरंगेण एतेन गन्दरबल जनपदे गगनगीर सोनमर्गस्य च मध्ये यात्रायाः समयः न्यूनीकरिष्यति। परियोजनया अनया क्षेत्रे पर्यटन सम्पर्क सुविधा च दृढिष्यति। अवसरेऽस्मिन् नितिन गडकरी, डॉ जितेन्द्र सिंह, जम्मू कश्मीरस्य राज्यपाल मनोज सिन्हा, मुख्यमंत्री उमर अब्दुल्ला, वरिष्ठ केन्द्रशासित मंत्रिण, संसदीय मंत्रिण, सुरंग परियोजनाया वरिष्ठ अधिकारिण च उपस्थिता आसन्। सैन्य प्रमुखेण जनरल उपेन्द्र द्विवेदिना प्रोक्तं यत् देशस्य उत्तरीय सीम्नि स्थितः संवेदनशीला सञ्जाता। तेन भणितं यत् सैन्यबलं कस्यापि प्रतिकूलस्थित्यां सम्मुखीकर्तुं सन्नद्धा अस्ति। सीमवर्तिषु क्षेत्रेषु सुदृढ आधारभूतसंरचनां विनिर्मातुं भारतीयसेना कृतसंकल्प विद्यते। अद्य नवदिल्ल्यां भारतीयसेनायाः वार्षिक वार्ताहर सम्मेलने जनरल द्विवेदिना प्रोक्तं यत् जम्मूकश्मीरे स्थितिः नियन्त्रिता, राज्ये च पर्यटनम् अपि वर्धिता। तेन भणितं यत् विगत वर्षे भारते आतंकवादिषु 60% पाकिस्तानीयाः आसन्। श्रीद्विवेदिना भणितं यत् क्षेत्रेऽस्मिन् हिंस्रघटनासु न्यूनता समायाता। अधुना तत्रत्य जनाः शान्तिम् इच्छन्ति।
Coming on to GNK, situation is firmly under control. Past year, 60% of terrorists eliminated were of Pakistan origin. Tourism, development activities, Amarnath Yatra, where we witnessed more than 5 lakh pilgrims this time, and peaceful conduct of elections are indicators to a positive change. So the theme of terrorism to tourism is gradually taking shape.
विश्वस्य बृहत्तमः आध्यात्मिक सांस्कृतिक च समागमः महाकुम्भः अद्य पौष पूर्णिमायाः अवसरे उत्तरप्रदेशस्य प्रयागराजे अमृत स्नानेन समं प्रारब्धः। लक्षाधिकाः श्रद्धालवः, तीर्थयात्रिणः, आगन्तुकाः च गंगा यमुना सरस्वती सदृश पवित्र नदीनां संगम त्रिवेणी तटे विभिन्न घाटस्थलेषु पवित्र स्नानं कुर्वन्ति। भव्य अस्यायोजनस्य समापनं फरवरी मासे षड्विंशति तारिकायां महाशिवरात्रि पर्वणि भविष्यति। चतुश्चत्वारिंशदुत्तरैकशतेषु वर्षेषु वारमेकं दुर्लभ खगोलीय संयोगः वर्षेस्मिन् महाकुम्भस्य वैशिष्ट्यं वर्धिष्यति। अवसरेस्मिन् प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रत्येकस्मै भारतीय नागरिकाय महाकुम्भस्य शुभकामना प्रेषिता। प्रोक्तं च यत् पवित्रोऽयं पर्व विश्वास सौहार्द पूर्णं च विद्यते। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ आन् एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। अद्य सस्यसङ्ग्रहकालसम्बन्धः लोहड़ी पर्व उत्तर भारते विशेषतया पंजाब हरियाणा हिमाचल प्रदेश दिल्ली जम्मू चंडीगढ़ राज्येषु आमान्यते। लोहड़ी पर्व शैत्य कालावधेः दीर्घरात्रेः अवसानस्य प्रतीको सहैव दीर्घदिनस्य आरंभस्य स्वागताय अस्ति, यतो हि अस्मिन् समये सूर्यः उत्तरायणं प्रति वर्धति। अस्मिन् पर्वणि जनाः अग्नेः समक्षं विभिन्नानि नृत्यानि कृत्वा स्वीय प्रसन्नतां प्रकटीकुर्वन्ति, सहैव विभिन्नानि मिष्ठान्नानि अपि खादन्ति, जनेभ्यश्च दास्यन्ति। राष्ट्रपतिः उपराष्ट्रपतिः च लोहड़ी मकर संक्रांति माघ बिहु पोंगल पर्वणाम् अवसरे देशवासिनभ्यः शुभकामनाः अयच्छन्। देशस्य पृथक् पृथक् भागेषु इमे उत्सवाः महदुल्लासेन परिपाल्यन्ते। धान्यसम्बद्धाः इमे उत्सवाः जनेषु सौहार्दं समेधयन्ति, सममेव सामाजिक सद्भावानां राष्ट्रिय ऐक्यं च प्रकटयन्ति। भारतीय ऋतुविज्ञान विभागेन अद्य पंजाब हरियाणा चंडीगढ़ हिमाचल प्रदेश ओडिशा उत्तर प्रदेशस्य बहुषु क्षेत्रेषु अहर्निशं भीषण कुज्झटिकायाः आच्छादनस्य अनुमानः अभिव्यक्तः। आगामिषु द्वि-त्रि दिवसेषु राजस्थान बिहार उत्तराखण्ड उपहिमालयीय क्षेत्राणि पश्चिम बंगाल सिक्किम पूर्वोत्तरीय राज्येष्वपि यथावत् स्थितेः अनुमानः प्रकटितः। राष्ट्रिय राजधानी क्षेत्रे दिल्ल्यां कुज्झटिकायाः कारणात् दृश्यता न्यूनीभूता भविष्यति। एतस्मात् कारणात् बहवः रेलयानानि विलम्बेन प्रचलन्ति। रेलविभागानुसारेण दिल्लीं प्रति आगम्यमानानि 12 रेलयानानि विलम्बेन प्रचलन्ति। देशं ऋतुसज्जं जलवायु गुणवत्तापूर्णं च राष्ट्रं कर्तुं प्रधानमन्त्री नरेन्द्रमोदी श्वः मिशन मौसम इत्यस्य आरम्भं करिष्यति। अत्याधुनिक ऋत्वावलोकन प्रौद्योगिकीनां प्रणालीनां च विकासेन उच्चसंकल्पयुत वायुमण्डलीय निरीक्षणं नवीनक्षमतायुताः रडार उपग्रहाः उच्चप्रदर्शन संगणकाः च योजयित्वा एतत् प्राप्तुम् अभियानस्य उद्देश्यमस्ति। श्रीमोदी नवदिल्ल्यां भारत ऋतुविभागस्य सार्धैकशततमे स्थापना दिवसस्यावसरे भागं गृहीत्वा अस्य प्रारम्भं करिष्यति। प्रधानमन्त्री नरेन्द्रमोदी महाराष्ट्रे बुधवासरे मुम्बई नगरस्य नौसेना डाकयार्ड इत्यत्र नौसेनायाः त्रीणि युद्धपोतानि आईएनएस सूरत, आईएनएस नीलगिरि, आईएनएस बाघशीर च राष्ट्राय समर्पयिष्यति। त्रयाणां प्रमुख नौसैन्य युद्धपोतानां संयोजनेन रक्षानिर्माणे सागरीय सुरक्षायां च वैश्विक नेतृत्वस्य भारतस्य दृष्टिकोणं सम्पूरयितुं महत्वपूर्णं पदाक्षेप भविष्यति। प्रमुखेण रक्षा अध्यक्षेण जनरल अनिल चौहानेन अद्य देशस्य युवजनाः 47-2000 वर्षं यावत् भारतं विकसितराष्ट्रनिर्माणे महत्वपूर्ण भूमिका निर्वहिष्यन्ति इति उक्तम्। प्रवर्तमान वर्षीय खोखो विश्वचषक प्रतियोगिता अद्य सायंकाले नवदिल्ल्यां इन्दिरागांधी इण्डोर क्रीडांगणे प्रारप्स्यते इति वार्ताः।